एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्रिणः केपी शर्मा ओलिनः भिजन टू एक्शन नामकम् कल्पनातः कर्मपर्यन्तम् इति शीर्षकीयम् पुस्तकम् ह्यः सार्वजनिक कृतम् वर्तते। प्रधानमन्त्रिणः ओलिनः 79वां जन्मदिनस्य सन्दर्भम् आलक्ष्य प्रकाशितम् एतस्य पुस्तकमिदम् राष्ट्रकविः माधवप्रसाद घिमिरे, शताब्दीपुरूषा सत्यमोहन जोशी च ह्यः प्रधानमन्त्रीनिवासे बालवाटार स्थाने आयोजिते कार्यक्रमे सार्वजनिक कृतवन्तौ। कार्यक्रमम् सम्बोधयन् प्रधानमन्त्री केपी शर्मा ओली समृद्धो नेपालः सुखिनो नेपालिनश्चेति अभियाने नेपालः अग्रे वर्धितो वर्तते एवं भाविषु कतिचित् वर्षेषु केनापि भोजनावास वस्त्राणाम् अभावः सोढव्यो नैव भविष्यतीति अभासत। वर्तमान सर्वकारस्य द्विवर्षीय कार्यकाले एव नेपालः मार्ग मानव मुक्तदेशः सम्भूतो वर्तते। प्रतिदिनं षण्णां किलोमीटरमितानाम् अनुपातेन देशे गुणस्तरीयाः मार्गाः निर्मीयमाणाश्च सन्तीति चर्चयन् प्रधानमन्त्री ओली अवदत् एतदेव समृद्धिर्यात्रा वर्तते। समृद्धदेशेन सह सुन्दर समाजस्य निर्माणं वर्तमान सर्वकारस्य स्वप्नोस्तीति प्रतिपादयन् प्रधानमन्त्री ओली विपन्नतां पूर्णरूपेण समाप्य समृद्धिं प्रति प्रस्थानात्मक विषय आत्मना पुस्तके उल्लिखितोस्तीति प्रावोचत्। प्रधानमन्त्री ओली विद्युत निर्यातक देशस्य रूपेण नेपाल स्थापितो वर्तते एवं बहुषु क्षेत्रेषु विकासस्य आधाराः निर्मिताः सन्तीति हेतोः प्रतिवेशिभिः सह पारस्परिक लाभस्य समानतायाश्च आधारे नेपालेन विकासपथे तीव्र संक्रमणं विहितमिति द्रष्टुं शक्यते इति विश्वासम् अदापयत। कार्यक्रमे पुस्तकस्य टिप्पणीकारद्वयं डाक्टर शम्भुराम सिंहडा, डाक्टर बिन्दु लोहनी च प्रधानमन्त्रिणः पुस्तकेन विदेह शासनेन आर्थिक वृद्धिर्मार्गेण च देशस्य अनुकूल रूपान्तरणे विकासपथे च अग्रे नयनात्मकः स्पष्ट मार्गः निर्दिष्टोऽस्तीति अवोचताम्। प्रधानमन्त्रिणः 79वां जन्मदिनम् अद्य फाल्गुनस्य 11 दिवसे रविवासरे वर्तते। नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य अध्यक्ष पुष्पकमल दाहाल प्रचण्डः वदति अनुचित कार्यम् कुर्वाणः यः कोऽपि उन्मुक्तिम् न लभते। प्रेस संगठन नेपालस्य नवलपुर शाखया गतदिने नवलपुरे आयोजिते पत्रकार सम्मेलने अध्यक्ष प्रचण्डः केनापि अनुचित कार्यम् विहितम् अस्ति चेत् दलेन न संरक्ष्यते इति समस्पष्टयत। अध्यक्ष प्रचण्डः अगदत् संचार मन्त्रिणः प्रकरण सन्दर्भे प्रधानमन्त्रिणा तत्कालम् अग्रेसरितम् विषयेऽस्मिन् सम्बद्ध निकायेन अनुसन्धानम् प्रारब्धम् चास्ति। गतदिने एव चितवन जनपदे पत्रकारैः भाषमाणः अध्यक्ष प्रचण्डः एमसीसी इति अमेरिका देशीय सर्वकारस्य सहायता कोष संविदा सपरिमार्जनम् संसदा अनुमोदिष्यते इति विश्वासम् व्यक्तवान्। नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य सचिवालयोपवेशे एमसीसी नाम्नः मिलेनियम च्यालेंज कर्पोरेशन प्रस्तावस्य विषये विमर्शनम् सम्भूतम् वर्तते। ह्यः अपराह्ने प्रधानमन्त्री निवासे बालवाटार स्थाने उपविष्टे सचिवालयोपवेशे एमसीसी प्रस्तावाध्ययन कार्यदलस्य संयोजकः दलस्य वरिष्ठ नेता च झलनाथ खनालः अध्ययन प्रतिवेदनस्य विवरणम् प्रास्तौत। उपवेशे एमसीसी प्रस्ताव सम्बद्ध विभिन्नानि विवरणानि प्रस्तुतानि, तत्र विस्तृतं विमर्शनं च सम्भूतम् इति नेकपा दलस्य प्रचार विभागस्य उपप्रमुख प्रधानमन्त्रिणः केपी शर्मा ओलिनः संचार परामर्शदाता च सूर्य थापा अज्ञापयत। एमसीसी सहयोग सम्बद्ध विषय भूयोऽपि सचिवालयोपवेशे विमृक्ष्यते इत्युक्तं वर्तते। शिक्षा विज्ञान प्रविधि मन्त्री गिरिराजमणि पोखरेला कथयति सामुदायिक विद्यालयेषु आगामिनः चैत्र मासस्य अभ्यन्तरे अपर्याप्ता शिक्षक पदसंख्या प्रापयिष्यते। गतदिने काष्ठमण्डपे आयोजिते कार्यक्रमे मन्त्री पोखरेलः 49,000 शिक्षक पदसंख्यायाः अभावः साम्प्रतं वर्तते इति हेतोः स्थानीयस्तराद् ताः शिक्षक पदसंख्याः सृष्ट्वा चैत्रमासाभ्यन्तरे प्रपूरयिष्यन्ते। मन्त्री पोखरेलः सर्वकारेण वित्तस्य प्रदानेनैव पर्याप्तं न भवतीति भासमाणः सामुदायिक विद्यालयैः नैजविद्यालयैः सह प्रतिस्पर्धात्मिकायाः शिक्षायाः प्रदानाय बलं प्रादात्। स्वास्थ्य जनसंख्या मन्त्री भानुभक्त ढकालः भासते सर्वकारीय चिकित्सालयेषु कार्यरतैः चिकित्सकैः निश्चित दूर्याः अभ्यन्तरे चिकित्सागृहाणां सञ्चालन निषेधनत्वेन विधिः आनीयमानो वर्तते। विराटनगरे सञ्चल्यमानायाः प्रदर्शन्याः औद्योगिक मेलायाश्च समापन कार्यक्रमे गतदिने मन्त्री ढकालः अवोचत् सर्वकारीय चिकित्सालयानां चिकित्सकेभ्यः कार्यालय समयावधौ चिकित्सालये एव विद्यमानात्मिका व्यवस्था विहिता अस्ति। समाजवादी दलस्य अध्यक्ष डाक्टर बाबुराम भट्टराई भासते सर्वकारं प्रति जनतायाः विश्वासः क्षीयमाणो वर्तते। पर्वत जनपदे गतदिने आयोजिते कार्यकर्तृ मेलने अध्यक्ष डाक्टर भट्टराई सर्वकारेण वर्षद्वयं यावत् दर्शनत्वेन किमपि कार्यं कर्तुं शक्तं नास्तीति आरोपयत् इति समाचारः।